चरितं देवदेवस्य महादेवस्य पावनं अपारं परमोदारं चतुर्वर्गस्य साधनं गौरी विनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकं शिवं ध्यात्वा दशभुजं शिवरक्षां पठे नरः गंगाधर शिरः पातु भालमर्धेन्दुशेखरः नयने मदनध्वंसी कर्णुसर्पविभूषण पातु पुरा रतिर्मुखं पातु जगत्पति जिह्वां वागीश्वरः पातु कन्धरां शीतिकन्धरः श्रीकण्ठ पातु मे कण्ठं स्कन्धो विश्वधुरन्धरः भुजौ पातु दीनार्त शरणागत वत्सलः गुरु महेश्वरः पातु जानुनी जगदीश्वरः जङ्घे पातु जगत्कर्ता गुल्फो पातु एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् स भुक्त्वा सकलान् कामान् शिवसायुञ्जमाप्नुयात् गृहभूतपिशाचाश्चात्या स्त्रैलोके विचरन् पलायन्ते शिवनामाभिरक्षणा अभयं करनामेदं कवचं पार्वतीपतेः भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत् मां नारायणः स्वप्ने शिवरक्षां यथा दिशत् प्रातरुत्थाय योगः।